इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। प्रधानमन्त्री नरेन्द्र मोदी अद्य गुजरातस्य शासने राष्ट्रिय वन्यजीव मण्डलस्य सप्तमोपवेशनस्य अध्यक्षतां करिष्यति, यत्र वन्यजीवसम्बद्धेषु राष्ट्रियस्तरीय विषयेषु च चर्चा भविष्यति। एतत् मण्डलं वन्यजीवानां वनानां च संरक्षणाय विकासाय प्रवर्धनाय च कार्यं करोति। प्रधानमन्त्री अस्य मण्डलस्य पदेन अध्यक्षः भवति। अद्य प्रातः प्रधानमन्त्री मोदी एशियाई सिंहानाम् अन्तिमनिवासस्थाने गिरराष्ट्रियोद्याने भ्रमणं करिष्यति। केन्द्रीयगृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां दुग्धक्षेत्रस्य स्थायित्वस्य च परिपत्रस्य कार्यशालायाः उद्घाटनं करिष्यति। कार्यशाला सहकारितामन्त्रालयस्य तथा पशु दुग्ध मत्स्य पालन मन्त्रालयानां नीतयः उपक्रमाः च केन्द्रीक्रियन्ते, येषाम् उद्देश्यं पर्यावरणीय दायित्वं समेत्य आर्थिकवृद्धिं सुनिश्चित्य स्थायि दुग्धोत्पादनं प्रवर्धयितुं भवति। गृहमन्त्री अमितशाहः ह्यः सूचितवान् यत् सम्पूर्णे देशे द्वादश विभिन्न प्रकरणेषु एकोनत्रिंशत् मादकद्रव्याणां विक्रेतारः न्यायालयेन दण्डिताः सन्ति। सामाजिक अन्तर्जालीय प्रसारतन्त्रमाध्यमेन श्रीशाहः अवदत् यत् नरेन्द्रमोदी सर्वकारः मादकद्रव्याणां विक्रेतृन् न्यायालयं प्रति आनेतुं प्रतिबद्धः अस्ति। सममेव श्रीशाहः प्रोक्तवान् यत् सर्वकारोऽयं मादकद्रव्याणां प्रकोपं विरुध्य अथ च मादकद्रव्यात् मुक्त भारतं कर्तुं प्रयासं करिष्यति इति। जम्मूकश्मीरस्य एकमासव्यापि वित्तसंकल्पनासत्रस्य आरम्भः अद्य जम्मूनगरस्य नागरिकसचिवालयस्य विधानसभासंकुले उपराज्यपालमनोजसिन्हायाः अभिभाषणेन भविष्यति। गतवर्षस्य अक्टूबरमासे सत्ताप्राप्तेः अनन्तरं मुख्यमन्त्रिणः उमर अब्दुल्लायाः नेतृत्वे एतत् प्रथमम् आयव्यय वित्तसंकल्पनापत्रसत्रं भविष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः ह्यः प्रोक्तवान् यत् विकसितभारतं केवलं स्वप्नः नास्ति, एषः अस्माकम् उद्देश्यः अस्ति। अस्मिन् उद्देश्ये यूनः महत्वपूर्णां भूमिकां निर्वहन्ति। सः ह्यः तिरुवनन्तपुरम् नगरे भारतीयविचारकेन्द्रद्वारा आयोजिते चतुर्थे पी परमेश्वरन् स्मृतिव्याख्यानमालायां भाषमाणः आसीत्। श्रीधनखड़ः अवदत् यत् देशे यत्किमपि भवति तत् वैश्विकरूपेण अस्मान् गौरवान्वितं करोति। सः अवदत् यत् भारतं सम्प्रति विश्वस्य पञ्चतमी अर्थव्यवस्था अस्ति तथा च शीघ्रमेव चतुर्थी बृहत्तमी वैश्विकी अर्थव्यवस्था भवितुं शक्नोति। असौ कार्यक्रमस्यास्य अनन्तरं हैदराबादं प्रति प्रस्थितवान्। युक्रेन देशस्य राष्ट्रपतिः व्लादिमीर जेलेन्स्की अवदत् यत् अमेरिका देशस्य राष्ट्रपतिनः डोनाल्ड ट्रम्पस्य समर्थनं स्वदेशस्य कृते महत्वपूर्णमस्ति। व्हाइट हाउस इति स्थले प्रचलितायाम् अमेरिकायाः राष्ट्रपतिः उपराष्ट्रपतिः चोभयोः एकस्मिन् परिचर्चायाम् एतत् वक्तव्यम् आगतम्। आईसीसी चैंपियंस ट्रॉफी प्रतिस्पर्धायां गतरात्रौ दुबई अंतर्राष्ट्रीय क्रिकेट क्रीडांगणे भारतेन न्यूजीलैंड दलं चतुश्चत्वारिंशत् धावनांकैः पराजितम् इति वार्ताः।